राम गीता जी का पाठ 17वां अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुचैव पंचजानुरमर्दनम् देवकी करनानन्दम् कृष्णं वन्दे जगद्गुरुम् अबलाकाङ्क्षेर्यज्ञो हृदि दृष्टो ययिष्यते यस्तव्यमेवेति मनः समाधाय स सात्विक अभिसन्धाय तु बलम् दम्भासमपि चैव विद्यते भरत श्रेष्ठ संयज्ञो वेद्धिराजसं श्रीहि नमश्रेष्ठानं मान्तहि नमरक्षिणां श्रद्धा विरहितं यज्ञं तामसं परिचक्षते देवद्विजगुरुकाज्ञो पूजनं शौचमार्जवम् ब्रह्मचर्यमहिंसा च शरीरं तप उच्यते अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते मनः प्रसाद सौम्यत्वं मौनमात्मविवेकः भावसंशोधिरित्येथ तपो मानसमुच्यते श्रद्धया परया सप्तं तपस्तत्त्रिविधं नरी अफलाकाङ्क्षिभिर्युक्ते सात्विकं परिचक्षते सत्कारमानपूजार्थं तपोदन्धेन चैवयः क्रियते तदिह प्रोक्तं राजसञ्चलनध्रुवम् गूढग्राहेणात्मनो यत् क्रीडया क्रियते तप परस्यो साधनार्थं वा तत्तामसमुदाहृतम् दातव्यमिति यद्दानं बीजतेनुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं स्मृतं दातव्यमिति यद्दानं बीजतेनुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं स्मृतं वसुदेवसुतं देवं पंचजानुरमर्दनं देवकीकरणानन्दं कृष्णं वन्दे जगद्गुरुं
हरे शरणम् 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 हरे शरणम हरे शरणम हरे शरणम हरे शरणम हरे शरणम।